कवच स्तोत्रम् नरसिंह कवचम् वक्ष्ये प्रह्लादेनोदितं पुरा सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् विवृतास्यं त्रिनयनं शरदिन्दुस्समप्रभम् लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् श्रीया सुशोभितोरस्कं रत्नकेयूरमुद्रितम् तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् इन्द्रादिसुरमौलिष्ठस्फुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् स्वहृत्कमलसंवासं कृत्वा तु कवचं भटेत् नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः सर्वगोपीस्तम्भवासपालं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः स्मृतिं मे पातु नृहरिः मुनिवर्यस्तुतिप्रियः नासां मे सिंहनाशस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्यादिपः पातु नृसिंहो रसना मम वक्त्रं पात्व इन्दुवदन सदा प्रह्लादवन्दितः नृसिंह पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् दिव्यास्त्रशोभितभुजो नृसिंह पातु मे भुजौ करौ मे देव वरदो नृसिंह पातु सर्वतः हृदयं योगिसाध्यश्च निवासं पातु मे हरिः मध्यं पातु हिरण्याक्ष वक्ष कुक्षिविधारणः नाभिं मे पातु नृहरिः स्वनाभि ब्रह्म संस्तुतः ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिं गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ऊरु मनोभवः पातु जानूनि नररूपदृक् झङ्गे पातु धराभारहर्तायोऽसौ नृकेसरी सुरराजप्रदः पातु पादौ मे नृहरीश्वरः सहस्रशीर्षा पुरुष पातु मे सर्वशस्तनुं महोग्रपूर्वतः पातु महावीराग्रजोऽग्नितः महाविष्णुदक्षिणे तु महाज्वालस्तु नैऋतौ पश्चिमे पातु सर्वेषु दिशि मे सर्वतो मुखः नृसिंह पातु वायव्यां सौम्यां भीषणविग्रहः ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी इदं नृसिंह कवचं प्रह्लादमुखमण्डितम् भक्तिमान्यः पटे नित्यं सर्वपापै प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्य संशयम् सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूम्यन्तरिक्ष दिव्यानां ग्रहाणां विनिवारणम् वृश्चिको रगसंभूता विशापहरणं परम् ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् करमूले धृतं येन सिद्ध्येयुकर्मसिद्धयः देवासुरमनुष्येषु स्वं स्वं एव जयं लभेत्। एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति। द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मभिर्नृभिः कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते। अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् तिलकं बिभ्रूयाद्यस्तु तस्य ग्रहभयं हरेत्। त्रिवारं जपमानस्तु दत्तं वार्याभिमन्त्र च प्राशयेद्यं नरं मन्त्रं नृसिंहध्यानमाचरेत्। तस्य रोगा प्रणश्यन्ति ये च स्युकुक्षिसम्भवाः किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत्। मनसा चिन्तितं यत्तु सतच्चाप्नोत्य संशयम् गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हटन्तं दीपयन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तं क्रन्दन्तं रोषयन्तं दिशि दिशि सटतं संहरन्तं भरन्तं वीक्षन्तं घूर्णयन्तं करणिकरसतैः दिव्यसिंहं नमामि इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम्।